कवन्त्यैव स्नपयन्ति ये दश दिशो धाम्ना निरुन्धन्ति ये धामोद्दाम महस्विनां जनमनो मुष्णन्ति रूपेण ये देव्येन ध्वनिना सुखं श्रवणयो साक्षात् क्षरन्तोऽमृतं वन्द्यास्तिष्ठसहस्रलक्षणधरास्तीर्थेश्वराः सूरयः।